सर्वेषां समासचिन्तनवर्गं प्रति एकवारं स्वागतम्। प्रवर्तमानः विषयः अस्ति अव्ययीभावसमासः। अव्ययीभावसमासप्रसङ्गे अस्माभिः किञ्चित् पठितमासीत्। आरम्भे वयम् अष्टाध्यायीसूत्रपाठः इति पुस्तकात् कानिचन सूत्राणि, इत्युक्ते अव्ययीभावसम्बद्धसूत्राणि पठेम। तत्र सूत्राणां स्मरणं बहु लाभदायकं, तदर्थं प्रथमतया सूत्राणां स्मरणम् अपेक्षितं। भगिनी सूत्राणि एकवारं पठतु, अरुणा भगिनी।
आं भगिनि, अव्ययीभावः अव्ययं, विभक्ति, समीप, समृद्धि, श्रुद्धि, अर्थाभाव, अत्यय, असंप्रति, शब्द प्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, संपत्ति, साकल्यांत, वचनेषु, यथा आसदृश्ये, यावदावधारणे, सुप्रतिना मात्थार्थे, अच्च शलाका संख्याः परिणा, विभाषा, अपपरिबहिरञ्चवः, पञ्चम्या, आं मर्यादाभिविजयो, लक्षणे नाभिप्रति अभिमुखे, अनृयत्समया,
यस्य
अनृयत्समया यस्य छायामः, तिष्ठत् गुप्रभृतीनि च, पारे मध्ये षष्ट्या वा, संख्या वंशेन नादिभिश्च, अन्यपदार्थे च संज्ञायाम्।
साधु भगिनी, उत्तमं, धन्यवादः।
धन्यवादः।
एतावत्पर्यन्तं यदस्माभिः पठितं तस्मात् किञ्चित् मुख्यांशान् सारांशरूपेण वदामि। अव्ययीभावसमासप्रसङ्गे भवन्तः सर्वे जानन्ति एव किञ्चित्। अत्र सूत्रेषु प्रथमं सूत्रम् अधिकारसूत्रम्। अव्ययीभावः इति अधिकारसूत्रमस्ति। तदनन्तरं द्वितीयं सूत्रमस्ति दीर्घं सूत्रम्, अव्ययं, विभक्ति, समीप, समृद्धि, वृद्धि, विरुद्धि, अर्थाभाव, अत्यय, असंप्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, सम्पत्ति, साकल्य, अन्तवचनेषु इति सूत्रमस्ति। तस्मिन् सूत्रे षोडशपदानि सन्ति। तेषु षोडशेषु अर्धेषु विद्यमानम् अव्ययं समर्थेन सुबन्तेन समस्यते इति अस्माभिः पठितं। सूत्रे षोडशपदानि सन्ति। अव्ययं, विभक्ति, समीप, तादृशरीत्या सूत्रमस्ति। तत्र प्रथमं पदम् अव्ययम्। अव्ययं पदम् एतेषु षोडशेषु अर्धेषु विद्यमानं पदं भवेत् इति विषयः। तत्र प्रथमं पदमस्ति विभक्ति। विभक्ति अर्धे एकमेव अव्ययपदमस्ति, सप्तमी विभक्ति अर्धे अस्ति। अधि इति अव्ययपदम्, अधि इति अव्ययपदम्, अन्यत् पदम् इत्युक्ते अन्यत् सुबन्तपदं, वृक्षं वा, वृक्षः वा, वनं वा, आत्मा इति एतेषु अन्यतमं पदं, इतरपदं भवति चेत् तदा अव्ययीभावसमासः भवति विभक्त्यर्थे। तदर्थं कानिचन उदाहरणानि परिशीलितवन्तः, अधिवृक्षम्, अधिवनम्, अधिगोपम्, अध्यात्मम् इत्यादीनि पदानि वयं परिशीलितवन्तः। द्वितीयं पदमस्ति समीप, इत्युक्ते समीपार्थे एकमेव अव्ययपदमस्ति उप इति अव्ययपदमस्ति। उप इति अव्ययपदं समर्थेन सुबन्तेन समस्यते चेत् अव्ययीभावसमासः भवति। तदर्थं कानिचन उदाहरणानि वयं परिशीलितवन्तः, उपग्रामम्, उपवृक्षम्, उपनदी, उपराजम् इत्यादीनि पदानि वयं दृष्टवन्तः। अपि च अव्ययीभावसमासे समासान्तप्रत्ययविधानं भवति इति अपि अस्माभिः दृष्टं। समासान्तप्रत्ययाः अव्ययीभावसमासे पञ्चभिः सूत्रैः विधीयन्ते। तत्र पञ्चसूत्राणि कानि इत्युक्ते, अनश्च, नपुंसकादन्यतरस्यां, नदीपौर्णमास्याग्रहायणीभ्यः, झयः, अव्ययीभावे सरत्प्रभृतिभ्यः, अन्यत् सूत्रमपि अस्ति, पञ्चानां सूत्राणां द्वारा समासान्तप्रत्ययविधानं भवति, अपि च समीपार्धे उप इति अव्ययपदं योजयित्वा उपनदी इति समस्तपदं निर्मितवन्तः. तत्र उपनदी इति पदस्य प्रसङ्गे तत्र एकमेव विशिष्टं सूत्रमस्ति, ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण नदी इति शब्दस्य अन्ते स्थितस्य ईकारस्य ह्रस्वत्वं भूत्वा उपनदी इति रूपं सिध्यति. सर्वासु विभक्तिषु एकमेव रूपं सिध्यति, उपनदी इति रूपम्. इत्युक्ते अव्ययीभावसमासे टच् इति समासान्तप्रत्ययः विहितः भवति चेत् एकं रूपं, टच् प्रत्ययस्य अभावे अन्यत् रूपं सिध्यति, टच् प्रत्ययस्य योजनेन उपनद अदन्तम् अङ्गं सिध्यति तत्र, तदनन्तरं अमादेशः भवति. टच् प्रत्ययस्य अभावे उपनदि इति रूपं, टच् प्रत्ययस्य योजनेन उपनदम् इति अन्यत् रूपं सिध्यति. तत्र पदम् अदन्तं भवति चेत् तदनुसृत्य अन्यानि कार्याणि अपि भवन्ति, न अव्ययीभावादतोऽन्त्वपञ्चम्याः अपि च तृतीया सप्तम्योर्बहुलम् इत्याभ्यां सूत्राभ्यां भिन्नानि रूपाणि सिद्ध्यन्ति इति वयं दृष्टवन्तः. एतावत्पर्यन्तं समीपार्धे उप इति अव्ययम् उपयुज्य समस्तपदम् उपनदी इति अथवा ठच् प्रत्ययस्य योजनेन उपनदम् इति पदं वयं साधितवन्तः. तत्र उपनदम् इति पदस्य निर्माणप्रसङ्गे तत्र ठच् प्रत्ययः उपनदम् इति पदस्य प्रसङ्गे नदीपौर्णमास्याग्रहायणीभ्यः इति सूत्रेण ठच् इति समासान्तप्रत्ययः विकल्पेन विधीयते इति अस्माभिः पठितम् आसीत्. तत्र नदीपौर्णमास्याग्रहायणीभ्यः इति सूत्रे उत्तरपदं नदी, पौर्णमासी, आग्रहायणी इत्येतेषु त्रिषु पदेषु अन्यतमं पदम् उत्तरपदं भवति चेत् तदा तच् इति समासान्तप्रत्ययः विकल्पेन भवति. तेन तत्र पदं समस्तपदम् अदन्तं भवति. एतत् सर्वम् अस्माभिः पठितमेव. तत्र करपत्रे उपनदम् अपि च उपनदी अनयोः रूपसिद्धिः तत्र स्थापितम् अस्ति. अधुना वयम् उपपौर्णमासि उपपौर्णमासम् इति अनयोः रूपसिद्धिः कथं भवति, कुत्रचित् भेदः अस्ति, कुत्रचित् साम्यम् अस्ति, तदर्थं कुत्र कुत्र भेदः दृश्यते इति अस्माभिः ज्ञातव्यम्. तथा एव उपाग्रहायणि उपाग्रहायणम् इत्यनयोः रूपसिद्धिः कथं भवति इति अपि अद्य वयं परिशीलयामः. तदनन्तरम् अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रस्य प्रसङ्गे किञ्चित् पठेम. प्रथमतया अत्र उपपौर्णमासी उपपौर्णमासम् इति रूपद्वयं सिद्ध्यति. तयोः रूपसिद्धिः कथं भवति इति प्रथमतया चिन्तयामः. गीताञ्जलिभगिनी एकवारम् अत्र उपपौर्णमासी ह्रस्व इकारः अन्ते श्रूयते, तत् पदं कथं निष्पन्नं भवति इति किञ्चित् वदतु.
आं भगिनि, प्रथमं तु पौर्णमासी योगः उप आयाति, इत्युक्ते अलौकिक विग्रहवाक्यमिति. तदनन्तरं प्राक्कडारात् समासः इति सूत्रेण तु समाससंज्ञा विधीयते. तदनन्तरं अव्ययीभावः इत्यनेन अव्ययीभावसमाससंज्ञा विधीयते. तदनन्तरम् अव्ययं विभक्ति समीपसमृद्धि व्यद्धि अर्थभाव अत्यय असम्प्रति शब्द शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्ययोगपद्य सादृश्यसम्पत्तिसाकल्यन्त अन्तवचनेषु इति सूत्रेण अव्ययम् अर्थ आयाति इत्युक्ते अव्ययम् अस्ति, अव्ययीभावसमासः अस्ति अत्र, अर्थ आयाति तत्र. तदनन्तरं कृत् अधीतसमासाश्च प्रातिपदिकसंज्ञा भवति. सो अधुना पौर्णमासी योगः ङस् योगः उप तु प्रातिपदिकं संज्ञा भवति. तदनन्तरं सुपो धातुप्रातिपदिकयोः इत्यनेन सुब्लुक् भवति. तदनन्तरं पौर्णमासी योगः उप तिष्ठति. अधुना तु सुप्तिङन्तं पदं सूत्रेण तु पदसंज्ञा अपि भवति, यद्यपि प्रत्यय लोपे प्रत्ययलक्षणम् अस्ति. तदनन्तरं अव्ययात् आप् सुपः इति सूत्रेण न लुक् तु सुप् लुक् भवति एव इति सूत्रेण.
अत्र उपशब्दस्य प्रसङ्गे एतत् सर्वं ज्ञातव्यम्. इत्युक्ते उप इति पदस्य प्रसङ्गे, उप इति पदं पदसंज्ञा अस्ति वा प्रश्ने सति तस्य उत्तरम् एव प्रत्ययलोपे प्रत्ययलक्षणम् इति तत्र सूत्रम् उक्तमस्ति. इत्युक्ते उप इति पदं पदं भवति वा सुप्तिङन्तं पदम् इति सूत्रेण तस्य पदसंज्ञा अस्ति वा इति प्रश्ने सति अव्ययात् आप् सुपः इति सूत्रेण पूर्वमेव सुप्रत्ययस्य लोपः जातः. लोपः भवति चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण तस्य पदसंज्ञा अस्ति इति तस्य समर्थनं भवति. वदतु
भगिनि. एक किञ्चित् स्पष्टीकरणार्थं पृच्छामि भगिनि, किमर्थं नदीयोगः ङस् योगः उपयोगः सु न प्रथमतया एव वयं स्वीकुर्मः?
स्वीकर्तुं शक्नुमः, किन्तु अव्ययात् आप्सुपः इत्यनेन उप इति पदम् अव्ययपदम् अस्ति इति कृत्वा पूर्वमेव तस्मात् सुप्रत्ययस्य लोपः अभवत्. इतोपि वयं तत् सोपानमपि दर्शयितुम् इच्छामश्चेत् दर्शयितुं शक्नुमः, तत्र कापि बाधा नास्ति.
किन्तु प्रथम तु वयं यदा सुपो धातु प्रातिपदिकयोः इति सूत्रेण ङस् सुब्लुक् भवति, तदा एव उपयोग यदि सु अस्ति प्रथमतया एव, तदनन्तरं तत्तु सु अपि सुब्लुक् भवति, लुक् एव भवति. तदनन्तरं तु सुप्तिङन्तं पदं वदामश्चेत् अग्रिमं गच्छामि, तत्तु समीचीनं भगिनि.
अत्र नदी शब्दस्य अनन्तरं तत्र नस् प्रत्ययः अस्ति. नदी इति पदं, नदी इति पदस्य अन्ते पूर्वं सुप्रत्ययः अस्ति. अधुना सुपधातुप्रातिपदिकयोः इत्यनेन नस् प्रत्ययस्य लोपः अभवत् तृतीये सोपाने. पूर्वसोपाने तत् कार्यम् अभवत्, किन्तु उपशब्दस्य गतिः का इत्युक्ते उपशब्दस्य प्रसङ्गे कीदृशचिन्तनम् अपेक्षितम्? उप इति पदं भवति वा इति चिन्तयामश्चेत् तत्र उत्तरं किम् इत्युक्ते अव्ययात् आप्सुपः इति सूत्रेण उप इति शब्दात् पूर्वमेव सुप्रत्ययस्य लोपः अभवत्. सुप्रत्ययस्य लोपः भवति चेदपि तत्र प्रत्ययलक्षणं तिष्ठति, प्रत्ययलोपे सति प्रत्ययलक्षणं तत्र तिष्ठति इति तादृशसमर्थनम् अत्र दत्तमस्ति.
समर्थनं तत्तु अवगतं भगिनि.
अग्रे
वदतु. तदनन्तरं प्रथमनिर्दिष्टं समास उपसर्जनं सूत्रेण उप इति प्रथमविभक्ति अस्ति दीर्घसूत्रेण. तदनन्तरं इत्युक्ते यत् यत् पदस्य अर्थ यत् पदम् अव्ययम् अस्ति तत्तु प्रथमा विभक्ति अस्ति दीर्घसूत्रेण, तत्तु समास उपसर्जनं संज्ञा स्वीकरोति अत्र. तदनन्तरं उपसर्जनं पूर्वम् इति सूत्रेण उप इति पदं पूर्वनिपात भवति. तदनन्तरं अधुना तु उप पौर्णमासी इति अस्ति. तदनन्तरम् अव्ययीभावसमासः अव्ययीभावश्च प्रथम अध्याये सूत्रेण अव्ययम् इति संज्ञा भवति. तदनन्तरम् अव्ययीभावश्च द्वितीय अध्यायतः तत् सूत्रेण नपुंसकलिङ्गम् इति लिङ्गं स्वीकरोति. तदनन्तरं ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रेण अन्ते यत् दीर्घ ई अस्ति उप पौर्णमासी तत् ह्रस्व भवति. इत्युक्ते अधुना तु उप पौर्णमास इति आयाति, उप पौर्णमासि इति आयाति. तदनन्तरं भगिनी एकः प्रश्नः अस्ति किञ्चित्. भगिनी अत्र तु प्रातिपद उपपौर्णमासि इति प्रातिपदिकसंज्ञा अस्ति अत्र, किन्तु मम प्रश्नः किमर्थं किमपि सूत्रेण नास्ति चेत् अपि पुनः प्रातिपदिकं संज्ञा आयाति अत्र इति मम प्रश्नः. इत्युक्ते ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रं तु केवल प्रातिपदिक अस्ति चेत् एव कार्यं करोति, किन्तु उपरम् उपरि भागे वयं तु सुप्तिङन्तं पदम् इति एकं संज्ञा पश्यामः. तत्तु तत् कार्यं तु भवति एव, पुनः किमर्थं विना सूत्रेण प्रातिपदिकसंज्ञा अत्र आयाति भगिनि?
विना सूत्रेण
इत्युक्ते एकं तु पदम् अस्ति न, उप पौर्णमासी इति एकं पदम् अस्ति, सुप्तिङन्तं पदं वयं कुर्मः. तदनन्तरम् अत्र तु ह्रस्व नपुंसके प्रातिपदिकस्य, इत्युक्ते यदि प्रातिपदिकमस्ति प्रातिपदिकस्य विषये एव ह्रस्व भवति, किन्तु अत्र तु पदम् अस्ति भगिनि, कथं प्रातिपदिकसंज्ञा पुनः आयाति तत्र उप पौर्णमासी इति पदस्य?
अन्य किं चिन्तयन्ति? कोऽपि वदतु.
अहं वदामि.
वदतु भगिनि.
यदि उपपौर्णमासी इति समस्तपदं वयम् उप निपात भवति, तदनन्तरम् अव्ययीभावश्च इति अव्यय संज्ञा भूत्वा तदनन्तरम् अव्ययीभावश्च इति समस्तपदं भवति, कृत तद्धित समास इति सूत्रेण प्रातिपदिकसंज्ञा आगच्छति तत्र, तत्र पुनः न दत्तमस्ति अत्र, अतः तत् अस्ति कृत समास इति समस्तपदेन. वयं जानीमः पूर्वम् एव.
इत्युक्ते अत्र अत्र अधुना कथं चिन्तनीयम् इत्युक्ते समस्तपदस्य प्रातिपदिकसंज्ञा केन सूत्रेण दीयते इति प्रश्ने सति. साधारणतया समस्तपदस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति सूत्रेण दीयते. इत्युक्ते कृदन्तपदानि तद्धितान्तपदानि समस्तपदानि प्रातिपदिकसंज्ञां प्राप्नुवन्ति कृत्तद्धितसमासाश्च इति सूत्रेण. उपरि अत्र द्वयोः पदयोः मेलनात् अनन्तरं सम्पूर्णशब्दसमुदायस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च इति सूत्रेण. तत्र प्रातिपदिकसंज्ञा अस्ति चेदेव तस्मात् तत्र सुपोधातुप्रातिपदिकयोः इति सूत्रेण सुपः लुक् भवति. किन्तु अन्तिमसोपाने अपि पुनः सुबुत्पत्तिः आवश्यकम्. सुप्रत्ययं न योजयामश्चेत् तस्य उपयोगं कर्तुं न शक्नुमः वाक्ये. इत्युक्ते पुनः प्रातिपदिकात् सुबुत्पत्तिः भवति. अधुना प्रातिपदिकसंज्ञा केन सूत्रेण दीयते इत्युक्ते कृत्तद्धितसमासाश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति.
किमर्थं वयं तत् न वदामः तत्र एव पुनः वदामः? किमर्थं वयं न पुनः वदामः तत्र अव्ययीभावसमासश्च इत्यनेन तु पुनपुंसिकलिङ्गं भवति. तदनन्तरं कृतदितसमासश्च सूत्रेण प्रातिपदिकसंज्ञा अस्ति चेत् ह्रस्व इति अपि समीचीनं न भगिनि?
इत्युक्ते समस्तपदस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति.
समासस्य प्रातिपदिकं निर्माणं कृते अस्ति.
तत्तु सत्यं.
मम चिन्तनमस्ति प्रक्रियाकाले किमपि प्रक्रिया कृतं तदनन्तरं तत् पदं भवति वा प्रातिपदिकं भवति वा इति निश्चयितव्यं. तदनन्तरम् इदत् सुप्तिङ्गन्तं पदम् इति पदं संज्ञा भवति. तदनन्तरं प्रथमानिर्दिष्टम् इति कारणम् इति सूत्रस्य उपसर्जनसंज्ञापूर्वम् इति द्वसूत्रौ कारणेन एकं प्रक्रिया अभवत्. तदनन्तरम् उपपौर्णमासी इति भवति. तत् पदस्य अवस्था तिष्ठति वा या प्रातिपदिकं भवति वा इति स्पष्टव्यं. तत्र अव्ययीभावश्च इति सूत्रम् आयाति. एवं भवति तत् प्रातिपदिकमेव. तद तस्य कारणेन तस्य ह्रस्वो नपुंस प्रातिपदिकस्य प्रसक्तिः अस्ति. तत् प्रातिपदिकम् अस्ति कृत्वा तदनन्तरं स्वौजस् इति सूत्रस्य न्याप्रातिपदिकात् इति इति अधिकारिणेन तस्य अनन्तरं सुप् उत्पत्तिः भवति.
अस्तु. इत्युक्ते किम् अस्य पर्पस् एव तु समासः विधीयते एव. तदनन्तरं प्रातिपदिकं यदि न अस्ति अत्र कथं वयं समासः
गीतञ्जलि भगिनी, अस्माकं पदमस्ति उपपौर्णमासि इति पदमस्ति. अत्र ह्रस्वनुपुंसके प्रातिपदिकस्य इति सूत्रेण तस्य प्रातिपदिकस्य ह्रस्वत्वं भवति. तावत् पर्यन्तम् उक्तवती. तदनन्तरं किं भवति वदतु.
सो उपपौर्णमासि योगः अत्र तु सु आयाति. सु औज समौच्छस् इति दीर्घसूत्रेण. तदनन्तरम् अव्ययात् आप् सुपः इति सूत्रेण सुप् पुनः लोपः भवति. सुप् अत्र लोपः भवति. तदनन्तरम् उपपौर्णमासि इति आयाति. तदनन्तरं तत्पर्यन्तं
तावदेव. इत्युक्ते उपपौर्णमासि इति एकं रूपम् अस्ति. इत्युक्ते अत्र टच् प्रत्ययस्य विधानं न भवति इति कृत्वा उपपौर्णमासि इति रूपं सिद्ध्यति. धन्यवादः भगिनि. अनन्तरम् अत्र अरविन्द महोदय, भवान् वदतु यदि उपपौर्णमासं इति पदं निर्मातुमिच्छामश्चेत् तत्र नदीपौर्णमास्याग्रहायणीभ्यः इत्यनेन टच् विधीयते. तत्र कीदृशभेदः अस्ति, तत्र कीदृशानि कार्याणि भवन्ति, वदतु एकवारम्. उपपौर्णमासम्
आं भगिनि, प्रथमसोपानं प्रथम उपसर्जनं पूर्वम् इति कृत्वा उप इति पूर्वपद्यपादः भवति. तत्र सर्वासु प्रक्रियासु समानमेव. तदनन्तरमेव तस्य अन्यसोपानं भवति. तत्र उपपौर्णमासी इति सूत्रस्य इतर अत्र तिष्ठते. तस्य सन्धिनित्या कर्के सन्ति इति कारणेन उपपौर्णमासी इतर कोऽपि भेदः नास्ति. किन्तु अग्रहायणी इति अस्ति चेत् तत्र दीर्घम्
आगमति. प्रश्नः महोदय, अत्र मम प्रश्नः तु भगिनी उपपौर्णमासी इति पदं कथं साधितं, भगिनी उक्तवती, किन्तु अधुना उपपौर्णमासम् इति पदस्य निर्माणप्रसङ्गे विशिष्टकार्याणि कानि, तत्र भेदः कुत्र दृश्यते, तत्र विशिष्टकार्याणि कुत्र भवन्ति, वदतु.
तत्र ह्रस्व नपुंसकपातिपदिक इति सूत्रस्य प्रसक्तिः नास्ति. यदि वयम् नदी अग्रवाणी अग्र पौर्णमासि अग्रहायणीभ्य इति सूत्रेण टच् विधीयते चेत्
तत्सूत्रं किं वदति?
तत् सूत्रं वदति नदीपौर्णमासी अग्रहायणी त्रीणि त्रीणि पदानि उत्तरपदमस्ति चेत् टच् विकल्पेन विधीयते. तत् विकल्पेन विधीयते चेत् यचीपम् इति सूत्रेण अजन्त प्रातिपद अजन्त प्रत्ययानां पूर्वम् अङ्गस्य यम् बम् इति संज्ञा भवति. तदनन्तरं यस्येति इति सूत्रेण अन्तिम अङ्गस्य अन्ते स्थित्वा आ इ वर्णानाम् अनन्तरं कोऽपि वर्णाः सन्ति चेत् तस्य लोपो भूत्वा उपपौर्णमास इति रूपं सिद्ध्यते.
अत्र एकवारं पश्यतु, नदीपौर्णमास्याग्रहायणीभ्यः इत्यस्मिन् सूत्रे त्रीणि पदानि सन्ति. एतेषु त्रिषु पदेषु अन्यतमं पदम् अत्र पौर्णमासि इति अन्यतमं पदमस्ति इति कृत्वा टच् इति समासान्तप्रत्ययः भवति. टच् इत्यस्मिन् इति संज्ञा कथं भवति, वदतु.
चुटु इति सूत्रेण पूर्वस्थित टच् टकारस्य इत् संज्ञा भूत्वा तस्य लोपो भवति. उत्तरवर्ती चकारस्य हलन्त्यम् इति सूत्रेण इत् भूत्वा तस्यापि लोपो भूत्वा आकार एव तिष्ठति.
उत्तमम्. अकारः तिष्ठति चेत् एतावत्पर्यन्तम् उत्तरपदं पौर्णमासि अस्ति. अत्र तस्य प्रयोजनं किम्?
यत्र टच् प्रयोजनेन अङ्गस्य अन्तिमरूपं भिन्नं भवति. तत्र अजन्तम् अस्ति चेत् अजन्तं नास्ति चेत् तस्य बं संज्ञा भूत्वा तस्य लोपो भवति यस्य इति सूत्रेण. तदनन्तरं तत् अजन्तं भवति.
महोदय, एकः प्रश्नः अत्र भसंज्ञकभागस्य इति लिखितमस्ति. भसंज्ञा नाम का? भसंज्ञा सूत्रं किम्?
बा यचि बम् इति सूत्रं बं बं संज्ञा विधीयते. तत् सूत्रं वदति प्रत्यय अजन्तप्रत्यय तद्यतप्रत्ययः अस्ति तस्य पूर्व अङ्गस्य भसंज्ञा भवति.
इतोपि स्पष्टतया वक्तव्यं महोदय. भसंज्ञा अत्र सुमन् भगिनी एकवारं वदतु, भसंज्ञा नाम का? यचिभं सूत्रं किं वदति?
नमस्ते भगिनि, यचिदं सूत्रं वदति इदानीं सर्वनामस्थानक स्थान संज्ञकः प्रत्ययः विहाय अन्य किमपि प्रत्यय सुप्रत्ययात् कप् प्रत्यय प्रत्ययपर्यन्तं किमपि प्रत्यय यकारादौ प्रत्यय अस्ति चेत् तस्मात् पूर्वं किमपि पदम् अस्ति चेत् तस्य भसंज्ञा संज्ञा भवति इति.
कस्य भसंज्ञा भवति?
पदस्य भसंज्ञा भवति.
पूर्वतन अङ्गस्य
सत्यं, पूर्वस्थित अङ्गस्य भसंज्ञा भवति यत्र अनन्तरं यकारादौ प्रत्यय अस्ति यत् सर्वनामस्थानप्रत्यय नास्ति अपि च सुप्रत्ययात् कप् प्रत्ययपर्यन्तं तस्मिन् गणे अस्ति चेत्
अत्र अजादिप्रत्ययः अस्ति चेदपि अजादिप्रत्ययः अस्ति चेदपि
यकारादौ नो चेत् अजादिप्रत्ययः सत्यं.
अत्र अस्मिन् प्रसङ्गे तत्र अजादिप्रत्ययः कः?
टच् प्रत्ययः.
टच् प्रत्ययः अजादिप्रत्ययः. अत्र टच् इत्यस्मात् अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते इति कृत्वा अजादिप्रत्ययः परः अस्ति इति कृत्वा पूर्वतनशब्दस्वरूपस्य अङ्गस्य केवलं. महोदय अधुना वदतु अरविन्द महोदय, नदीपौर्णमास्याग्रहायणीभ्य इति सूत्रेण एव केवलं तत्पदम् अदन्तं भवति वा अथवा अन्यानि कार्याणि भवन्ति वा? अत्र नदीपौर्णमास्याग्रहायणीभ्यः इति सूत्रेण टच् विधानं भवति, तेन पदम् अदन्तं भवति वा नो चेत् इतोपि अन्यानि कार्याणि सन्ति वा? नो चेत् नदी तदनन्तरं सोपानम् अग्रिमसोपानं किं वदतु टच् प्रत्ययस्य विधानानन्तरं?
तच् प्रत्ययस्य विधानानन्तरम् उपपौर्णमास इति रूपं सिद्ध्यति, तदनन्तरं ज्ञाप्रातिपदिकात् एवं
कार्यमस्ति.
कार्यं किं भगिनी वदतु?
यस्येति च सूत्रं कार्यं करोति, तद्वदति भसंज्ञकस्य अङ्गस्य अकार नो चेत् इकारस्य स्थाने दीर्घ ईकार परे अस्ति चेत् तत्र लोपः भवति इति.
अत्र इतोपि स्पष्टतया अवगन्तव्यं, यस्येति च इति सूत्रं किं वदति इत्युक्ते भसंज्ञक अङ्गस्य अकारस्य अवर्णस्य इवर्णस्य लोपः कदा? तद्धितप्रत्यये परे अथवा ईकारे परे. अत्र ईकारे परे तस्य प्रसक्तिः नास्ति.
इदानीं तु तद्धितप्रत्यये परे अस्ति.
उत्तमं, तद्धितप्रत्यये परे, टच् इति तद्धितप्रत्यये परे भसंज्ञक अङ्गात् आवर्णस्य ईवर्णस्य च लोपः भवति इति कृत्वा पौर्णमासी इत्यस्मिन् दीर्घ ईकारः अन्ते श्रूयते, सः ईकारः लुप्तः भवति, तेन किं भवति?
पौर्णमास भवति, अनन्तरं टच् प्रत्ययस्य अकार अत्र अस्ति, वर्णमेलन मेलनान्तरं पौर्णमास भवति.
उत्तमम्, एतावत् उपपौर्णमास भवति, तदनन्तरम् अकारस्य योजनेन उपपौर्णमास इति भवति. एकवारम् अदन्तं भवति चेत् अधुना वदतु महोदय, तदनन्तरं कार्याणि वदतु.
अकारान्तं भवति इति यस्येति सूत्रस्य सोपानानन्तरं, तदनन्तरम् अव्ययीभावश्च इति लिङ् नपुंसलिङ्गं भवति, तदनन्तरं ज्ञाप्रातिपदिकात् इति स्वौजस् इति सूत्रस्य सुप् भवति. तदनन्तरम् अव्यादाप् सुपः इति सूत्रेण प्रायेण सुप् लुप् भवितुम् अर्हति, किन्तु न अव्ययीभावात् अतोन्त्वपञ्चम्या इति अपवादसूत्रकारणेन सुप् स्थाने अम् आदेशः भवति पञ्चमी विहाय. तत्र अम् आदेश अम् आदेशं सु कृत्वा नदी पौर्णमासयोग अम् इति सन्धि अमिपूर्व इति पूर्व परयोस्थाने एकपूर्वादेशः भूत्वा दीर्घ आकारः न भवति, किन्तु नदी पौर्णमासम् इति भवति सर्वासु विभक्तिषु, किन्तु पञ्चमी विभक्तिं विहाय. तत्र तु नदी पौर्णमासात् इति भवति. एवं तृतीया सप्तमी इति विभक् विकल्पेन द्वयरूपं सिद्ध्यते, उपपौर्णमासम् उपपौर्णमासेन, उपपौर्णमासम् उपपौर्णमासे इति द्वे रूपे सिद्ध्यते.
उत्तमम् उत्तमं महोदय, धन्यवादः. अनन्तरम् उपाग्रहायणि इति एकं रूपम्, उपाग्रहायणम् इति अन्यत् रूपम् इति अपि अनेन सूत्रेण एव कार्यं भवति. ललिता भगिनी एकवारं तत्र उपाग्रहायणम् इत्यस्मिन् पदे विशिष्टकार्याणि कानि एकवारं वदतु. उपाग्रहायणम् केवलं विशिष्टसूत्राणि वदतु, सर्वं मास्तु.
विशिष्ट
इत्युक्ते कुत्र कुत्र भेदः अस्ति इत्युक्ते विशिष्टं सूत्रं किं तत्र सामान्यसूत्राणि
विशिष्टं विशिष्टसूत्रम् एचीबं तत् आरभ्य वा
उपाग्रहायणम् इति पद निर्माणसमये कीदृशानि कार्याणि भवन्ति इति मनसि चिन्तयित्वा तत्र नदीपौर्णमास्या ग्रहायणेभ्यः तस्मात् आरभ्य वदतु.
क्षम्यतां भगिनि, न अवगतम्.
इत्युक्ते तस्मिन् तस्य पदस्य निर्माणावसरे विशिष्टसूत्राणि कुत्र कुत्र भेदः दृश्यते एकवारं वदति वा अत्र, नो चेत् श्रीराम् महोदय भवान् वदतु. उपाग्रहायणम् उपाग्रहायणि तयोः वदतु.
नमस्कारः भगिनि.
नमस्ते.
अत्र प्रथमतया उपाग्रहायणी इत्यत्र यदा समस्तपदम् उपाग्रहायणी इति अस्ति, दीर्घ ईकारः अस्ति, तत्र नपुंसकसंज्ञा अस्ति इति कारणेन ह्रस्वनपुंसके प्रातिपदिकस्य इति सूत्रेण ह्रस्वादेशः भवति इति कृत्वा तत्र उपाग्रहायिनी इति भवति. तदनन्तरं सुप् योजनं तस्य लोपः तत्सर्वं भवति. इदानीं यदा उपाग्रहायणम् इति पदं निर्मातुम् इच्छामश्चेत् तत्र ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रं न प्रवर्तते, तद् प्रभाद्य अत्र नदीपौर्णमास्याम् अग्रहायणीभ्यः इति सूत्रं प्रवर्तते. अनेन सूत्रेण किं भवति इत्युक्ते तत्र टच् प्रत्ययस्य योजनं भवति, उपाग्रहायिनी योग टच्. अनुबन्धलोपानन्तरम् अकार अवशिष्यते, उपाग्रहायिनी योग अ इति भवति. इदानीं सूत्रं एस्येति च इति सूत्रं किं प्रवर्तते. अनेन सूत्रेण किं भवति इत्युक्ते यदा तद्धितप्रत्ययः अस्ति, तद्धितप्रत्यये परे इकारस्य अथवा अकारस्य लोपः भवति, अन्तस्य अङ्गस्य अन्तस्य विद्यमानस्य इकारस्य अथवा अकारस्य तद्धितप्रत्यये परे लोपः भवति. इदानीम् उपाग्रहायणी इति अत्र ईकार श्रूयते अन्ते इति कृत्वा तत्र ईकारस्य लोपः भवति. उपाग्रहायन् इति भवति. इदानीं तद्धितप्रत्यये टच् प्रत्यये यः अकारः अवशिष्यते तेन सह संयोगः भवति उपग्रहायण इति उप अग्रहायण इति भवति. इदानीम् अदन्त अङ्गम् अस्ति इति कृत्वा तत्र सुप्रत्यययोजनसमये तत्र न अव्ययभाव तोम्यपञ्चम्याः इति सूत्रेण अम्मादेशः भवति सुप् प्रत्ययस्थाने. अम्मादेशः कृत्वा तत्र उपाग्रहायणम् इति प्रथमपुरुष प्रथमविभक्ति एकवचनं रूपं भवति. तस्य वैकल्पिकरूपमपि तृतीया सप्तम्योर् बहुलम् इति सूत्रेण तृतीया विभक्तौ अपि च सप्तमी विभक्तौ भवति.
उत्तमम्. इत्युक्ते समासान्तप्रत्ययस्य अभावे उपाग्रहायणि इति रूपं, टच् समासान्तप्रत्ययस्य योजनेन उपाग्रहायणम् इति पदम्, अपि च अदन्तमस्ति इति कृत्वा तृतीया सप्तम्योर्बहुलं नाव्ययीभावादत्वञ्चोपञ्चम्याः इत्याभ्यां प्रसक्तिः अपि अस्ति. अपि च अत्र एकः विषयः अस्ति, अव्ययात् आप्सुपः इति पूर्वसूत्रमस्ति, न अव्ययीभावादत्वञ्चोपञ्चम्याः इति परसूत्रमस्ति. तयोर्मध्ये कीदृशसम्बन्धः अस्ति, किमर्थम् अव्ययात् आप्सुपः अभूत्वा न अव्ययीभावादत्वञ्चम्याः इति सूत्रस्य कार्यं भवति, यद्यपि द्वयोः सूत्रयोः प्रसक्तिः एकत्र अस्ति चेदपि अत्र केवलं न अव्ययीभावादत्वञ्चम्याः इति सूत्रेण एव कार्यं भवति, किमर्थम् इति प्रश्नः उदेति. अत्र सरला भगिनी एकवारम् उत्तरं वदतु.
न अव्ययीभावात् अत्वपञ्चम्या सूत्रेण विद्धिः अपि अस्ति, निषेधः अपि अस्ति. एतत् सूत्र अव्ययात् भावसुप तस्य अपवादत्वेन तस्य प्रभाद्यं करोति. यत् सुप् तस्य लोपं न भवति केवलं पञ्चमी विभक्त्या विहाय. सो यत्र तत् सुप् लोप् न भवति तत्र अम् विधीयते इति वयम् इष्टं रूपं प्राप्नुमः अम् इति विधानं कृत्वा. पञ्चमी विभक्त्याम् अपञ्चम्यां तत्र सुप् लोपं न भवति. तो अत्र कार्यं द्वयं भवति, नव्यविभावात् अतो अतोमत्व पञ्चम्या इति सूत्रेण. सो अव्ययात् आप्सुप तस्य प्रसक्ति अस्ति, किन्तु तत् प्रभाद्य नव्ययीभावात् अदन्तम् तत्र कार्यं करोति.
उत्तमम्. इत्युक्ते न अव्ययीभावाद्वतन्त्वपञ्चम्याः इति सूत्रे भागद्वयं वर्तते, एकः विधिभागः निषेधभागः. विधिभागः अमादेशः, निषेधभागः पञ्चमी विभक्तिं त्यक्त्वा, तत्र भागद्वयमस्ति. किन्तु अव्ययात् अत्र उत्तरं भगिनि, धन्यवादः भगिनि. अत्र अव्ययात् आप्सुपः इति सूत्रं सामान्यसूत्रम् अथवा डिफाल्ट् सूत्रम् अथवा औत्सर्गिकसूत्रं, किन्तु नाव्ययीभावादत्वञ्चम्याः विशिष्टं सूत्रम् अथवा अपवादसूत्रं. वयं व्याकरणवर्गे पठितवन्तः किं पूर्वपर अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति एकं वार्तिकमस्ति. इत्युक्ते पूर्वपरस्य पूर्वपरयोः अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति इति वयं पठितवन्तः. अत्र न अव्ययीभावादत्वञ्चम्याः इति सूत्रम् अपवादसूत्रं, तत्र एकं लक्षणमस्ति. तत् किमित्युक्ते निरवकाशत्वम् एव अपवादस्य बलं भवति. नाव्ययीभावादत्वञ्चम्याः इति सूत्रम् अत्र कार्यं न करोति चेत् अन्यत्र तस्य लब्धावकाशः नास्ति. किन्तु अव्ययाद आप्सुपः इति सूत्रं सामान्यसूत्रं, तस्य प्रसक्तिः सर्वत्र भवितुमर्हति. तदर्थम् अपवादबलेन न अव्ययीभावादत्वञ्चम्याः इति सूत्रेण अमादेशः अत्र भवति इति विषयः. उत्तमम्. अनन्तरम् अत्र समीपार्धे उप इति अव्ययस्य प्रयोगं कृत्वा अत्र एकम् अन्यत् पदं स्थापितमस्ति, उपगङ्गम्. उपगङ्गम् इति उदाहरणम् एकवारं परिशीलयामः. अत्र उप इति अव्ययपदं समीपार्धे तस्य प्रयोगः भवति. इतोपि समीपार्धक अव्ययानि अन्यानि अव्ययपदानि सन्ति, तानि कानि इति एकवारं परिशीलयामः. तदर्थं सर्वे करपत्रं पश्यन्तु. तत्र ध्येयं यत् इत्यस्मात् आरभ्य अधुना पठेम. अधुना उषा भगिनी भवती पठतु. उषा भगिनी,
श्रूयते वा? श्रूयते वा भगिनि?
श्रूयते.
ध्येयं, ध्येयं यत् समया, निकषा, आराद् इत्यादीनि समीपार्थक अव्ययानि सन्ति, तथापि अव्ययीभावसमासः न भवति. तस्य कारणम् अस्ति यत् समया, निकषा इत्यनयोः शब्दयोः योगे तु सामान्यतया द्वितीया विभक्तिः भवति. अपि च आरात् इति शब्दस्य योगे तु पञ्चमी विभक्तिः भवति. अतः द्वितीया विभक्तेः, पञ्चमी विभक्तेः च विधानसामर्थ्यार्थ समया ग्रामं, निकषा लङ्काम्, आराद् वनात् इत्यादिषु उदाहरणेषु अव्ययीभावसमासः न भवति. समीपार्थे केवलम् उप इति अव्ययस्य एव अव्ययीभावसमासः सम्भवति, अन्येषाम् अव्ययानां न. उप इति अव्ययस्य समीपार्थे केवलम् उप इति योजयितुं शक्यते. निकषा, आराद् इत्यादीनि पदानि अव्ययीभावात् समासः न भवति.
किम् अवगन्तव्यम् इत्युक्ते त्रीणि पदानि दत्तानि, समया, निकषा, आराद्. एतानि त्रीणि पदानि समीपार्थक अव्ययानि इत्युक्ते तेषाम् अर्थः तु समीपः इत्युक्ते साधारणतया समीपस्य भावः सामीप्यं, निकटस्य भावः नैकट्यं, तथा एव एतानि त्रीणि पदानि अव्ययपदानि, अपि च समीपार्धे एव तेषां प्रयोगः भवति साधारणतया. किन्तु समीपार्धे उप इति अव्ययस्य प्रयोगं कृत्वा एव अव्ययीभावसमासं कर्तुं शक्नुमः, न तु समया, निकषा. तत्र कारणं किम्? कारणं किम्?
These are used for like dvitiya vibhakti, but upapada vibhakti along, I mean, if samaya or nikasha are used, then I would know they are along with that is dvitiya vibhakti.
Uttamam bhagini, tadeva uttaram. Atra kim dattam asti? Atra samaya, nikasha, etad padadvayam yojayitva tatra dvitiya vibhaktehe prayogah bhavati. Kadham atra udaharanamapi dattam asti. Samaya gramam. Tatra gramaha इति पुंलिङ्गपदं, किन्तु द्वितीयाविभक्तिं योजयित्वा समयाग्रामम् इत्युक्ते ग्रामस्य समीपम् इति अर्थः. निकषा लङ्काम्, लङ्का इति आकारान्तस्त्रीलिङ्गपदमस्ति, किन्तु निकषा इति अव्ययं योजयित्वा द्वितीयाविभक्त्यान्तं योजयित्वा तत्र लिखितमस्ति. इत्युक्ते यद्यपि समीपार्धे समया, निकषा इति पदद्वयं योजयितुं शक्नुमः, तथापि अत्र अव्ययीभावसमासं कर्तुं न शक्नुमः. केवलं समीपार्धे उप इति पदस्य प्रयोगः एव भवति. तथा एव आरात् शब्दस्य प्रसङ्गे
पञ्चमी विभक्तिः भवति. आरात् वृक्षम् इति, आरात् वृक्षात् समथिङ्ग् लैक्.
इत्युक्ते वयं सर्वे जानीमः एव कारकविभक्तयः उपपदविभक्ति.
उपपदविभक्ति
उत्तमम्. उपपदविभक्तिः इत्युक्ते पदितः, उभयतः, अभितः, समया, निकषा, एतानि पदानि उपपदानि. एतेषां पदानां योगे द्वितीया विभक्तिः भवति. अत्र एकं वार्तिकमस्ति, अभित, परित, समया, निकषाः प्रतियोगे अपि इति वार्तिकेन एतेषाम् उपपदानां योगे सर्वदा द्वितीया विभक्तिः भवति किन्तु समस्तपदं कर्तुं न शक्नुमः इति विषयः अत्र उपपदद्वितीया इति विषयः अत्र इतोपि किमस्ति द्वितीयाविभक्तेः विधानसामर्थ्यात् समयानिकष इत्येतेषु पदेषु किन्तु आरात् इत्यस्मिन् प्रसङ्गे पञ्चमी विभक्तेः प्रयोगः भवति इति कृत्वा यद्यपि एतानि पदानि समीपार्थक अव्ययानि समीपार्थक अव्ययानि सन्ति चेदपि तेषां प्रयोगं कृत्वा अव्ययी भावसमासः न भवति इति विषयः उत्तमं भगिनि अधुना वदतु
उप इति पदम् अस्ति खलु तत्तु अव्ययीभावसमासे एव उपयोगं कर्तुं शक्नुमः किम्
उत्तमम् अत्र साधारणतया उपपदविभक्तयः इति वदामश्चेत् तत्र उपपदम् इति उपपदम् इति समस्तपदम् अपि अव्ययीभावसमासे युक्तं पदम् इत्युक्ते उपपदम् इत्युक्ते पदस्य समीपम् इति
किन्तु मम प्रश्नः अस्ति उप इति पदम् अव्ययीभावसमासे एव भवति किम्
समीपार्धे उप इति अव्ययपदस्य प्रयोगः
वयं तु साधारणतया अन्य इदानीं तु समया ग्रामम् अस्ति खलु तथा वयं वयं ग्रामम् उप गत्वा तिष्ठामः इति वक्तुं न शक्नुमः खलु
किमर्थं चेत् तत्र समासः नित्यरूपेण भवति चेत् तत्र पृथक्तया वक्तुं न शक्नुमः ग्रामस्य उप इति वक्तुं न शक्नुमः
ओ इदानीं तु समासः नित्यं खलु इदानीं तु तत्र विकल्पे विभाषा इति सूत्रम् अनन्तरम् अस्ति आम्
आम् आं भगिनि उपपदम् इति पदमपि अव्ययीभावसमासयुक्तं पदमेव उपपदम् उत्तमम् अनन्तरम् अत्र उपगङ्गम् इति पदमस्ति विनय महोदय भवान् पठतु
भगिनि अन्यत् उदाहरणं गङ्गायाः समीपम् उपगङ्गं समस्त समासपदम् अन्ततः अलौकिकविग्रहवाक्यं गङ्गा नस् उप षष्ठीविभक्ति समाससंज्ञा भवति प्राक्करात् समासः इति सूत्रेण सामान्य संज्ञा तर्हि विशिष्ट समाससंज्ञा अवैभावः अधिकारसूत्र इत्येन सूत्रेण समस्तपदस्य अवैभावसंज्ञा भवति अव्ययं विभक्ति समीप स्मृति व्यधि अर्थाभाव अत्यय सम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुकूल्ययोगपद्यसदृशसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण उप् इति अव्ययं समर्थेन गङ्गा इति समन्तेन सह समस्यते यदि वयं सुबन्तं वदामि तर्हि सुबन्तं तदन्तविधिः आधारेण अव्ययं सुबन्तं भवति उत्तरपदं सुबन्तेन भवति तद् तदन्तविधि आधारेण गङ्गा योग अंस योग उप समासस्य प्रातिपदिकसंज्ञा भवति कृतद्धितसमासः च केवलम् एक उद्देश्यः अस्ति अत्र सूत्रे आधारेण प्रातिपदिकसंज्ञा ददाति अर्थ अन्य अर्थ कोऽपि नास्ति कृदन्त अन्यविषयः सन्ति कृदन्तविभक्तिसमाने सम्पूर्णविभक्तिः अस्ति समासः न भवति केवलं प्रातिपदिकसंज्ञा ददाति गङ्गा योग गङ्गायोग योग उप इदानीं सुप् प्रत्ययस्य लुक् लोपः भवति सुपो धातु प्रातिपदिकयोः इति अनेन धातु प्रातिपदिक वयं पूर्वं अवदत् परन्तु धातुः शब्द धातु प्रातिपदिकयोः सुपः अथ धातु अपि च प्रातिपदिकः
अत्र महोदय अत्र पूर्वस्मिन् पूर्वस्मिन् सोपाने कृत्तद्धितसमासाश्च इति सूत्रेण सम्पूर्णशब्दसमुदायस्य प्रातिपदिकसंज्ञा भवति तदनन्तरं प्रातिपदिकसंज्ञा भवति चेदेव तस्मात् सुपः लोपः भवितुमर्हति सुपोधातुप्रातिपदिकयोः इति सूत्रे यद्यपि लुक् इति नास्ति लुक् इति पदम् अनुवृत्तिरूपेण आयाति तदर्थमेव अत्र प्रातिपदिकात् सुप्रत्ययस्य लोपः भवति सुप्रत्ययस्य लुक् भवति इति अत्र सुपोधातुप्रातिपदिकयोः इति सूत्रं वदति अत्र धातोः प्रसक्तिः नास्ति प्रातिपदिकस्य प्रसक्तिः एव एतत् सर्वं प्रातिपदिकमस्ति इति कृत्वा तस्मात् सुपः लुक् भवति इति विषयः वदतु वदतु महोदय
अतः गङ्गा योग नस् योग उप इत्यस्मिन् नस् इत्यस्य लुक् उप योग गङ्गा इति अवशिष्यते उपयोग गङ्गा सुप्यन्तं पदम् अत्रापि सुबन्त अपि च त्यन्त उपयोग गङ्गा सुप्यन्तम् अत इत्यनेन यस्य अन्ते सुप् प्रत्ययः अस्ति तस्य पदसंज्ञा भवति अत्र च उप् इत्यस्य अन्ते सुप् न दृश्यते तर्हि प्रश्नः उदयति यत् तस्य पदसंज्ञा अस्ति न वा उत्तरमस्ति यत् प्रत्यलोपे प्रत्यलक्षणम् इत्यनेन पदसंज्ञा अस्ति एव अव्ययात् परस्य सुप् प्रत्ययानां च लुक् भवति अव्ययात् सुप् इति सूत्रेण अहं किञ्चित् पठनं कृत्वा अव्ययात् सुपः साधारण सूत्र अस्ति अन्य अव्यय अपि च वा इत्यादि अपि सुप् इत्संज्ञा भवति अतः अत्र अव्यय च वा समानमस्ति अतः उप् इति अव्यस्य परस्य सुप् प्रत्ययस्य लोपः जातः परन्तु कारणम् अहं किञ्चित् अपठत् यदि अप् यदि च और् अन्य अव्ययः सुप् भवति तर्हि अव्ययात् सुप् भवति कोऽपि विशेषकारणं नास्ति गङ्गायोग उप् अत्र प्रथम निर्दिष्टं समास उपसर्जनम् इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति अत्र समासविधायकसूत्रम् अस्ति वयं जानीमः अव्ययं विभक्ति समीप स्मृति व्यति अर्थभावत्य सम्प्रति शब्दभाव प्रादुर्भाव पश्चात् यथा अनुपूर्व्य योगपद्यसदृशसम्पत्तिसाकल्य अन्तवचनेषु अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमविभक्तौ अस्ति अथ तस्य उपसर्जनसंज्ञा भवति अधुना उपसर्जनं पूर्वम् आयाति उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जन संज्ञकस्य पूर्वनिपातः पूर्वकार्यं भवति अत्र उप् इति अव्ययं वयं समस्तपदं समास उपगङ्गं निर्माणं कर्तुम् इच्छामः तर्हि प्रक्रिया इत्थं भवति प्राक्कटरात् अभिभावः तर्हि दीर्घसूत्र दीर्घसूत्र वदति दट् अव्ययं प्रथमनिर्दिष्टम् अन्य शब्दः विभक्ति वा समीप अर्थं बौद्ध्यः, परन्तु अर्थः अव्ययं सम्बन्धे अस्ति. अव्ययं सम्बन्धे षोडशः शब्दः शब्दार्थः, परन्तु उत्तरपदं उत्तरपदं कोऽपि नाम अस्ति. अतः यथा
नामपदम् इत्युक्ते उत्तरपदं नामपदम् इत्युक्ते समर्थं सुबन्तं पदम्. उत्तरपदं किमपि सुबन्तं पदं भवेत्, समर्थं सुबन्तं पदं भवेत्. वदतु.
सुबन्तेन सह सुबन्तम् अव्ययं सुबन्तेन सह उत्तरपदम्
इत्युक्ते अत्र दीर्घसूत्रं किं वदति इत्युक्ते, दीर्घसूत्रे षोडशपदानि सन्ति, तेषु अर्धेषु यत् पदम् अस्ति तत् पदं तादृशम् अव्ययपदं पूर्वपदं भवेत्, अपि च उत्तरपदं कीदृशपदं भवेत् इति अत्र चिन्तनमस्ति. अत्र गङ्गा इति पदं कीदृशं पदम्? उत्तरपदम् अजन्तपदम् इत्युक्ते दीर्घ आकारान्तपदम् अस्ति. स्त्रीलिङ्गपदमस्ति, दीर्घ आकारान्तपदम् अजन्तपदम् अस्ति. उत्तरपदम् अजन्तं चेत् भिन्नकार्याणि भवन्ति, उत्तरपदम् अदन्तं चेत् कानिचन कार्याणि भवन्ति, उत्तरपदं हलन्तं चेत् अन्यानि कार्याणि भवन्ति इति विषयः. अत्र गङ्गा इति पदस्य प्रसङ्गे अग्रिमं सोपानं वदतु. प्रथमानिर्दिष्टसमासोपसर्जनम् उपसर्जनं पूर्वम् इत्याभ्यां सूत्राभ्याम् उपशब्दस्य पूर्वनिपातः भवति. तदर्थम्
अहं चिन्तयामि गङ्गा अजन्त, परन्तु दीर्घ अस्ति, परन्तु अत्र विषयः कोऽपि नास्ति. अस्माकं विषयः केवलम् अदन्तं प्रति गच्छामः. यदि उपगङ्गा अस्ति वा अन्य कोऽपि हलन्तम् अस्ति वा अत्र अदन्तम् अस्ति, परन्तु अस्माकम् उद्देश्यः उपगन्तम् अदन्तं प्रति गच्छामः. यदि अदन्तं नास्ति तर्हि निमित्तकार्यं निमित्तसूत्रं द्वयसूत्रं न वै भावात् अतो अम् अपञ्चमेह, तत्र अतः शब्दः अदन्तः
अदन्तं न भवति चेत् एतत् सूत्रं निरर्थकं भवति.
निरर्थकं अपि च भगिनी, यदि तु अव्ययं न भवति तर्हि एव परिवर्तनं भवति. अतः अयम् अहम् उपगङ्गा सुप्रयन्तं पदं, तेन यस्य अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति. अत्र च अहम् अपठत् प्रत्यलक्षणमनोग अव्यात् सुपः गङ्गा योग उप गङ्गा उत्तरपदम् उप प्रथम पूर्वपदम्. अत्र प्रथमनिशिष्टं समासोपसर्जनम् इति सूत्रेण प्रथमया विभक्तया यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति. अत्र समासविधायकसूत्रमस्ति दीर्घसूत्र. अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमविभक्तौ अस्ति, अतः तस्य उपसर्जनसंज्ञा भवति. अधुना उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञस्य पूर्वनिपातः पूर्वकार्यं भवति. तर्हि उप प्रथमया आगच्छति, उपगङ्गा भवति. इदानीम् अवैभावचः अर्थः कः? अवैभावचः वदति अव्ययीभावचः अव्ययसंज्ञा भवति.
अत्र सूत्रमस्ति अव्ययीभावश्च, अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा भवति, अपि च नपुंसकलिङ्गत्वमपि प्राप्नोति. वदतु
भगिनि, अव्ययीभावचः सूत्र द्वयं सूत्रं वदति च अव्ययस्य अर्थः अस्ति. अव्यम् अस्ति अपि च नपुंसकम् अस्ति. अथ उपदङ्गा वैभावचः इत्येन वैभावसमासेन निर्मितस्य शब्दस्य अव्यय इति संज्ञा भवति. अव्यय इति संज्ञा भवति. तर्हि उपगङ्गा इत्यस्य अव्ययसंज्ञा भवति. इदानीं लिङ्गस्य निर्णयः भवति वैभावचः इत्येन वैभावसमासस्य लिङ्ग् भवति नपुंसकलिङ्गं. द्वितीय सूत्र वैभावच 2418. अतः उपगङ्गा इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम्. उपगङ्गा ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्व भवति. अतः उपगङ्ग इति भवति. उपगङ्गयोगसु उपगङ्गा इति प्रातिपदिकात् सुप् उत्पत्ति भवति स्वौजस सूत्राधारेण. उपगङ्गयोगसु अत्र अव्यात् सुप् इति सूत्रेण प्राप्यमानः अर्थ शानच् प्रत्ययः प्राप्यमानः सुबलुक् न वैभावात् अतो अम् अपञ्चम्याः. यदि वयं विभाजनं कुर्मः न वैभावात् योगा अत् अतः योगा अम् योगा तु योगा अपञ्चम्यः इति सूत्रेण निषिध्यते. अव्यैभावसुपः निषिध्यते. न वैभावात् भवात् अतो तु अपञ्चम्यः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् सुपप्रत्ययस्य लुक् न भवति अपि तु विभक्ते स्थाने अम् आदेशा विधीयते. कार्यद्वयम् अधीयते परन्तु पञ्चमविभक्तिविहाय प्रायशः तु अव्ययसम्बन्धे वदति परन्तु अहम् इदानीं न वदामि. पञ्चमविभक्ति अम् आदेशः न भवति तत्र. तथा सामान्यं सुबन्तक्रिया प्रक्रिया अनन्तरम् उपगङ्गात् इति रूपं निष्पन्नं भवति. अपरासु विभक्तिषु न वैभावात् अतो अम् तु अपञ्चम्याः इति सूत्रेण सुप्रत्ययस्य लुप् न भवति अति तु सुपः स्थाने केवलम् अम् आदेशः तिष्ठति. उपगङ्ग योग अम् अत्र अमि पूर्व इदानीं कार्यं करणीयम्. अमि पूर्वः इत्यनेन अक्वर्णात् अम् सम्बन्धिनः अचि परे पूर्वयोः स्थाने पूर्वरूप आदेशः स्यात्. पूर्वरूप आदेशः अतः उपगङ्ग ग हलन्त योग अ पूर्व अ. पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु उपगङ्गम् इति रूपं सिद्धं भवति. इदानीम् अन्यसूत्र तृतीयसप्तम्योः बहुलं सूत्रापि अनुवृत्तिसहित अदन्तात् अगच्छति. अतः इति सूत्रेण अदन्ताविभावात् तृतीयसप्तमेव च स्थाने विकल्पेन अमादेशा भवति. अनेन तृतीयविभक्तौ अपि च सप्तमी विभक्तौ रूपद्वयं सम्भवति.
उत्तमं
महोदय.
अत्र स्थगयतु. एतावत्पर्यन्तं प्रक्रियां वयं दृष्टवन्तः. धन्यवादः महोदय. अत्र उपगङ्गम् इति समस्तपदस्य रूपाणि अत्र दत्तानि. एकवारं पठतु रूपाणि. नो चेत् शर्मिला भगिनी भवती पठतु.
आं भगिनि,
रूपाणि पठतु.
प्रथमा, द्वितीया, चतुर्थी, षष्ठी च सम्बोधने अत्र एकवचनं, द्विवचनं, बहुवचनं, त्रिषु वचनेषु उपगङ्गम् इति रूपं भवति. तृतीयविभक्तौ तु उपगङ्गम् उपगङ्गेन, उपगङ्गम् उपगङ्गाभ्याम्, उपगङ्गम् उपगङ्गैः इति भवति. पञ्चमी विभक्ति उपगङ्गात्, उपगङ्गाभ्याम्, उपगङ्गेभ्यः भवति. सप्तमी विभक्ति उपगङ्गम् उपगङ्गे, उपगङ्गम् उपगङ्गयोः, उपगङ्गम् उपगङ्गषु इति भवति.
उत्तमं. केवलं रूपाणि एकवारं वदतु. रमेशस्य समीपम् इति पदमस्ति चेत् तत्र समस्तपदं किं भवति?
रमेशस्य समीपम्
उपरमेशम् इति भवति. किमर्थमित्युक्ते रमेश इति अकारान्तम् अस्ति इति कृत्वा तत्र अदन्त अव्ययीभावसमासं भवति इति कृत्वा उपरमेशम् इति पदं भवति. रमायाः समीपं तत्र किं भवति?
उपरमम्.
उपरमं. सीम्नः समीपम्
उपसीमम्.
राज्ञः समीपम्
उपराजम्.
उपराजम् इति भवति. उत्तमं. तेषां प्रक्रिया अग्रिमे सप्ताहे चर्चयिष्यामः. किन्तु एतावत्पर्यन्तम् उत्तरपदम् अदन्तमस्ति चेत् कीदृशं कार्यं भवति इति वयं चर्चितवन्तः. किन्तु उत्तरपदं हलन्तमस्ति चेत् भिन्नानि कार्याणि भवन्ति. उत्तरपदं हलन्तमस्ति चेत् कुत्रचित् समासान्तप्रत्यये विधानं भवति इति वयं पठितवन्तः. अध्यात्मम् इत्यस्मिन् प्रसङ्गे अनश्च इति सूत्रम् उपयुज्य रूपं साधितवन्तः. अधुना वयं समासान्तप्रत्ययप्रसङ्गे एव अव्ययीभावे सरत्प्रभृतिभ्यः इति सूत्रेण अपि तच् इति समासान्तप्रत्ययः विधीयते इति अस्माभिः पूर्वमेव पठितं. किन्तु तत्र शरत्प्रभृतिभ्यः इति लिखितमस्ति. तत् किं? शरदादिगणः इत्युक्ते कः? तस्मिन् गणे कीदृशानि पदानि सन्ति? के के शब्दाः सन्ति तस्मिन् गणे? एतत् सर्वम् अद्य वयम् एकवारं परिशीलयामः. तदर्थं करपत्रस्य अधोभागे अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रं लिखितमस्ति. एकवारं तत् सूत्रं पठेम. भगिनी भवती एव आरम्भं करोतु.
भगिनी, एकः प्रश्नः अस्ति तस्मात् पूर्वं. इदानीं तु वयम् अध्यात्मम् इति अध्यात्मम् इति दृष्टवन्तः. तथा एव उप अधि तत्र किमपि द्वयोः मध्ये किमपि भेदः न भवति खलु? इदानीं तु उपनदी उपनदं तथैव अधिनदी अधिनदम् अपि भवितुं शक्नोति खलु? अधि अस्ति वा उप अस्ति वा तत्र किमपि भेदः न भवति खलु?
इत्युक्ते तत्र प्रक्रिया तु समाना, किन्तु अर्थभेदः अस्ति.
अर्थभेदः अस्ति, अव्ययीपदस्य अपि भेदः अस्ति. किन्तु रूप इत्युक्ते उत्तरपदस्य रूपाणि किं कानि इति तत्तु समान. अधिनदी उपनदी उपनदम् अधिनदम् वयं तु अधि प्रसङ्गे अधिनदम् इति न पठितवन्तः, उपनदी नदम् एव पठितवन्तः. किन्तु तस्य तत् रूपं नदम् इति रूपम् अधि नदम् अपि भवितुं शक्नोति. इदानीं तु अधि अध्यात्म अधि अध्यात्ममम् उपाध्यात्मम् अपि समान एव खलु? प्रक्रिया समान, सूत्राणि समान, सर्वे समान.
इत्युक्ते अधिनदम् यथा उपनदम् इति भवति, अत्र नदीपौर्णिमास्या ग्रहायणी इति सूत्रेण तत्र उत्तरपदं नदी अस्ति चेत् तत्र समासान्तप्रत्ययविधानं भूत्वा अधिनदम् इति अपि भवितुम् अर्हति.
तथा एव अध्यात्मम् उपाध्यात्म तत्र सन्धिकार्यं किञ्चित् भेदः भवति. अधि इकारान्त अस्ति, उप अकारान्त अस्ति, अतः सन्धि सन्धेः भेदः अस्ति. किन्तु अन्तिमरूपं तु किमपि भिन्नं न भवति खलु.
इत्युक्ते अत्र यत्र यत्र उप इति पदमस्ति तस्मिन् स्थाने अधि अपि योजयित्वा रूपसिद्धिः भवति अत्र. किन्तु अधिनदी इति वदामश्चेत् भिन्न अर्थः अस्ति, उपनदी इति वदामश्चेत् भिन्न
अर्थः. सम्यक्
उत्तमम्. इत्युक्ते तादृशं पदं सिद्ध्यति, अधिनदम् उपनदम् इव अधिनदम् अपि भवितुमर्हति. तदेव अधुना अव्ययीभावे सरत्प्रभृतिभ्यः इति सूत्रम् एकवारं पठेम. अत्र शर्मिला भगिनी भवती पठतु.
अव्ययीभावे शरत्प्रभृतिभ्यः शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे टच् इति समासान्तः कथितसंज्ञकप्रत्ययः भवति. शरत्प्रभृतिर्येषां ते शरत्प्रभृतिः प्रभृतयः. अव्ययीभावे सप्तम्यन्तं शरत् प्रभृतिभ्यः पञ्चम्यन्तं द्विपदमिदं सूत्रम्. राजा सखिभ्यश्च इत्यस्मात् सूत्रात् टच् इत्यस्य अनुवृत्तिः भवति. तद्धिताः समासान्ताः प्रत्ययः परश्च ज्ञाप्रातिपदकात् इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् अव्ययीभावे शरत्प्रभृतिभ्यः ज्ञाप्रातिपदकात् परश्च तद्धितसमासान्तः टच् प्रत्ययः. अत्र सूत्रस्य अनुवृत्ति कथं केषां शब्दानाम् अनुवृत्ति भवति च अनुवृत्तिसहितसूत्रं कः इति दीयते. अग्रे अपि पठामः वा?
अत्र शरदादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे कानिचन पदानि सन्ति. अस्माकम् अवगमनार्थं किञ्चित् वदामि. अत्र एकः गणः अस्ति, सर्वादिगणः इति एकः गणः अस्ति. तस्मिन् गणे सर्वाणि पदानि सर्वनामपदानि. इत्युक्ते तत्र तस्मिन् गणे सर्व, विश्व, उभ, उभय, इतर इत्यादीनि सर्वनामपदानि सन्ति. तत्र सर्वादीनि सर्वनामानि इति सूत्रेण तेषां सर्वेषां पदानां सर्वनामसंज्ञा भवति. सर्वनामसंज्ञा भवति चेत् कीदृशानि कार्याणि भवन्ति इति अन्यः विषयः. किन्तु सर्वादीनि सर्वनामानि इति सूत्रेण सर्वादिगणे यानि यानि पदानि सन्ति तेषां सर्वनामसंज्ञा भवति. तथा एव अत्रापि शरदादिगणे कानिचन पदानि सन्ति. शरदादिगणे के के शब्दाः सन्ति इति एकवारं पश्यामः. भगिनी पठतु.
टच् इति प्रत्यये टकारचकारयोः इत्संज्ञा भवति. टच् इत्यस्मिन् केवलम् अकार अवशिष्यते इति कारणेन टच् इति प्रत्ययस्य योजनानन्तरं सर्वे हलन्तशब्दाः अपि अचन्ताः भवन्ति. शरदादिगणः इति एकः गणः अस्ति. अस्मिन् गणे एते शब्दाः अन्तर्गताः. शरद्, विपाश, अनस्, मनस्, उपानः, दिव्, हिमवत्, अण्डु, दिश्, दिश्, दृश्, विश्, चेतस्, सदृश्, चतुर्, त्यद्, तद्, यद्, कियत्, जरायाः, जरस् च गणसूत्रम्. प्रतिपरसमनुभ्योक्षणः गणसूत्रम्. पथिनश्च गणसूत्रम्.
किञ्चित् अत्र अत्र किं लिखितमस्ति? उपरितने परिच्छेदे तत्सर्वम् अस्माभिः पठितमेव. टच् इत्यस्मात् टकारचकारयोः इति संज्ञा भवति, एतत् सर्वं ज्ञातमेव. अस्मिन् परिच्छेदे किमस्ति?
शरदादिगण इति इदानीं भवती उक्तवती, सर्वादिगणः अस्ति. एवमेव शरदादिगण इति गणः अस्ति. तत्र शरद् इति शब्द आरभ्य अत्र शब्द दीयते. एषां शब्दानां गणः अस्ति ते शरदादिगणे भवति. अत्र द्वयं त्रीणि गणसूत्राणि दीयते, तस्य विवरणम् अधः अस्ति.
उत्तमम्. इत्युक्ते अत्र अस्मिन् गणे कानिचन पदानि सन्ति, अपि च गणसूत्राणि त्रीणि दत्तानि. गणसूत्रं नाम किं, गणपाठः नाम किम्, एतदपि अस्माभिः ज्ञातव्यम्. श्रीराम महोदय, भवान् वदतु, गणसूत्रं नाम किम्? अत्र जरायाः जरश्च अथवा प्रतिपरसम अनुभ्योक्षणः अथवा पधिनश्च, एतानि त्रीणि गणसूत्राणि किं वदन्ति? एकवारं वदतु
भगिनि. तस्मिन् विषये अहं किमपि न जानामि भगिनि, अहं पठित्वा एव वदामि.
पठित्वा वदतु.
अस्मिन् सूत्रे एव जरायाः जरश्च इति गणसूत्रम् अस्ति. अनेन गणसूत्रेण अविभावसमासे विहितस्य जराशब्दस्य जरस् आदेशः भवति, तथा च तस्मात् टच् इति समासान्तप्रत्ययः विधीयते. अस्तु, जरायाः जरस् इत्युक्ते जरा जरा इति शब्दस्य जरस् इति आदेशः भवति, तदनन्तरं टच् प्रत्ययोजनं भवति. अस्मिन् जरायाः जरस् इति गणसूत्रम् अस्ति.
इत्युक्ते अत्र अहं चिन्तयामि एकं समस्तं पदमस्ति उपजरसम्. उपजरसम् इति समस्तपदं साधयितुम् अस्य गणसूत्रस्य आवश्यकता अस्ति. आवश्यकता अस्ति. तत्र जरा इति पदस्य स्थाने जरस् आदेशः भवति. तदनन्तरं टच् समासान्तप्रत्ययः विधीयते चेत् तत् पदम् अदन्तं भवति, तेन अम् आदेशः भवितुमर्हति. तदर्थमेव तत्र पदम् उपजरसम् इति पदं सिद्ध्यति. अग्रे वदतु, अग्रे पठतु.
अस्मिन् सूत्रे एव परोक्षि प्रतिपरसन्नुदेयण
अत्र किञ्चित् मुद्रणदोषः अस्ति. प्रतिपरसम अनु अनुभ्यो अत्र मुद्रणदोषः.
प्रतिपर सम अनुभ्यो क्षणः इति गणसूत्रम् अस्ति. अनेन तत्र गणसूत्रेण अविभावसमासे प्रतिपरसम अनु इत्येभ्यः शब्देभ्यः परः अपि अक्षिप् शब्दः वर्तते. तर्हि तस्मात् शब्दात् टच् इति समासान्तः प्रत्ययः विधीयते. गणि प्रादयः सन्ति, प्रतिपर सम् अणु इति प्रादिगणे विद्यमानः शब्दाः तेषां यदि अक्षि इति पदं योजयामश्चेत् तैः सह यदा अक्षि इति पदं योजामश्चेत् अविभावसमासे प्रसङ्गे तदा अत्र उदाहरणार्थं प्रतियोग अक्षि इति यदा समस्तपदं प्रत्यक्षि इति अस्ति चेत् तत्र टच् प्रत्ययस्य योजनं भवति, तत्र प्रत्यक्षम् इति रूपं सिद्ध्यति.
उत्तमम्. उत्तमं महोदय. अत्र अनेन गणसूत्रेण पूर्वपदं प्रति अथवा पर अथवा सम अथवा अनु एतेषु चतुर्षु पदेषु अन्यतमं पदं पूर्वपदं भवेत्. तदनन्तरम् उत्तरपदम् अक्षि इति पदं भवेत्. अक्षि इति कीदृशं पदं वदतु? एकवारं प्रथमाविभक्तिरूपाणि वदतु. उत्तमं. नपुंसकलिङ्गपदं नपुंसकलिङ्गपदं नकारान्तपदम् अक्षि अक्षिणी अक्षीणि इति रूपाणि भवन्ति. उत्तरपदम् अक्षि इति पदं भवेत्. पूर्वपदम् एतेषु चतुर्षु पदेषु अन्यतमं भवेत्. तदा अनेन गणसूत्रेण टच् इति समासान्तप्रत्ययः विहितः भवति. यथा महोदयेन उक्तं प्रत्यक्षम् इति अव्ययीभावसमासयुक्तं पदं, परोक्षं समक्षम् अन्वक्षम् इत्यादीनि पदानि सिद्ध्यन्ति. एतेषु पदेषु अव्ययीभावसमासः अस्ति. अनेन गणसूत्रेण परोक्षिप्रतिपर सम अनुभ्योक्षणः इति गणसूत्रेण तत्र समासान्तप्रत्ययविधानं भवति, तेन पदम् अदन्तं भवति, अत्यन्तं भवति चेत् अमादेशः भवति इति विषयः. अन्तिमं वाक्यं
पतिनश्च इति गणसूत्रेण वैभवसमासे पतिन् शब्दस्य विषये अपि प्रतिपरसम् अणु एतेषां योगे टच् इति समासान्तप्रत्ययः भवति. इदानीं पतिन् इति शब्दः अस्ति, तेन सह यदि प्रतिपरसम इति प्रादयः अव्ययभावप्रसङ्गे तत्र पतिन् इति शब्दस्य परे टच् इति तद्धितप्रत्ययस्य योजनं भवति. शब्दस्य विषये यदि प्रादेयः प्रतिपर सम् अणु एतेषां अविर्भावप्रसङ्गे पतिन् इति शब्देन सह भवति चेत् तदा टच् प्रत्ययः योजनीयः.
नकारान्तपदमस्ति इति कृत्वा प्रथमाविभक्त्यां रूपाणि कथं भवन्ति अत्र वदतु. उत्तमम्. इत्युक्ते एतावता उत्तरपदं पधिन् शब्दः भवेत्, पूर्वपदम् एतेषु चतुर्षु अन्यतमं पदं भवेत्. अत्र रूपाणि एकवारं वदतु महोदय, किं भवितुम् अर्हन्ति?
प्रति यदा समस्तपदं प्रतियोग पतन् पतिन् इति अस्ति चेत् तदा टच् प्रतियोजनानन्तरं तत्र न तद्यते इति सूत्रेण टेः लोपः भवति इति कृत्वा प्रतिपथ तदनन्तरं टच् प्रत्ययसकार आयाति, प्रतिपथ तदनन्तरं मम आदेशः प्रतिपथम् इति भवति.
तत्र प्रतिपथम् इति भवति, परपथम्
अनुपथम्.
एतानि पदानि सिद्ध्यन्ति. एतावत् टच् प्रत्ययस्य योजनेन किं भवति?
टच् प्रत्ययस्य योजनेन तत्र अस्मिन् प्रसङ्गे पतिनश्च इति गणसूत्रस्य प्रसङ्गे किं भवति इत्युक्ते तत्र पतिन् इति शब्दस्य विद्यमानः इकारः नकारः एतयोः लोपः अभवत्. तदनन्तरम् अकारः टच् प्रत्ययस्य अकारः योजनेन अदन्त अङ्गं सिध्यति. अदन्तम् अङ्गम् इति कृत्वा तत्र अम्मादेशः भवति, अतः प्रतिपथं परपथम् इति अदन्त अङ्ग पदानि भवन्ति.
उत्तमम्, धन्यवादः महोदय. अत्र एतावत्पर्यन्तम् अव्ययीभावे सरत्प्रभृभ्यः इति सूत्रस्य प्रसङ्गे किञ्चित् अवगतवन्तः. अत्र उपशरदम् इति पदं कथं निर्मातव्यम्, अनेन सूत्रेण टच् समासान्तप्रत्ययस्य विधानं भवति, अपि च अन्यानि कार्याणि भवन्ति वा, एतत् सर्वम् उपशरदम् इत्यस्मिन् पदे कानि कानि कार्याणि भवन्ति, तत्सर्वम् अग्रिमे सप्ताहे वयं पुनः मिलित्वा चर्चयिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.
धन्यवादः.
धन्यवादः.